శ్రీ నృసింహస్తుతిః ప్రహ్లాద ఉవాచ బ్రహ్మాదయః సురగణామునయోథ సిద్ధాః సత్వైకతానమతయో వచసాం ప్రవాహైః నారాధితుం పురగుణైరధునాపి పిప్రుః కిం తోష్టుమర్హతి సమే హరిరుగ్రజాతేః మన్యే ధనాభిజన రూప తపశ్రుతౌజస్తేజః ప్రభావ బల పౌరుషబుద్ధియోగాః నారాధనాయ హి భవంతి పరస్య పుంసో భక్త్యా తు తోష భగవాన్ గజయూథపాయ విప్రద్విషడ్గుణయుతాదరవిందనాభపాదారవింద విముఖాచ్వపచంబరిష్ఠం మన్యే తదర్పిత మనోవచనే హితార్థ ప్రాణం పునాతి సకులం నతు భూరిమానః నైవాత్మనః ప్రభురయం నిజలాభపూర్ణో మానం జనాద విదుషః కరుణో వృణీతే యద్యజ్జనో భగవతే విదధీత మానం తచ్ఛాత్మనే ప్రతిముఖస్య యథాముఖశ్రీః తస్మాదహం విగత విక్లవ ఈశ్వరస్య సర్వాత్మనా మహి గ్రణామి యథా మనీషం నీచో జయా గుణ విసర్గమనుప్రవిష్టః పూయేతయేన హి పుమాననువర్ణితేన సర్వే హ్యమీ విధికరాస్తవ సత్వధామ్నో బ్రహ్మాదయో వయమివేష న చోద్విజంతః క్షేమాయ భూతయ ఉతాత్మసుఖాయ చాస్య విక్రీడితం భగవతో రుచిరావతారైః తద్యచ్చ మన్యుమసురశ్చ హతస్త్వయాద్య మోదేత సాధురపి వృశ్చిక సర్పహత్యా లోకాశ్చ నిర్వృతిమితాః ప్రతియంతి సర్వే రూపం నృసింహ విభయాయ జనాః స్మరంతి నాహం బిభేమ్యజితతేతి భయానకాస్య జిహ్వార్కనేత్రభ్రుకుటీరభసోగ్రదంష్ట్రాత్ ఆంత్రస్రజః క్షతజకేసరశంకుకర్ణాన్ నిర్హ్రాదభీతదిగిభాదరిభిన్నఖాగ్రాత్ త్రస్తోస్మ్యహం కృపణవత్సలదుస్సహోగ్రః సంసారచక్రకదనాద్గ్రసతాం ప్రణీతః బద్ధస్వకర్మభిరుషత్తమతేంఘ్రిమూలం ప్రీతోపవర్గమరణం హ్వయసే కదా ను యస్మాత్ ప్రియా ప్రియ వియోగ సయోగ జన్మ శోకాగ్నినా సకలయోనిషుదహ్యమానః దుఃఖౌషధం తదపి దుఃఖమతద్ధియాహం భూమన్ భ్రమామి వద మే తవ దాస్య యోగం సోహం ప్రియస్య సుహృదః పరదేవతాయ లీలాకథాస్తవ నృసింహ విరించ గీతాః అంజస్తితర్మ్యను గృణన్ గుణ విప్రముక్తో దుర్గాణితే పదయుగాలయహంస సంగః బాలస్య నేహ శరణం పితరౌ నృసింహ నార్తస్య చాగదముదన్మతి మజ్జతో నౌః తప్తస్య తత్ప్రతివిధిర్య ఇహాంజశేష్టస్తావద్విభూతనుభృతాం త్వదుపేక్షితానామ్ యస్మిన్ యతో యర్హి యేన చ యస్య యస్మాద్ యస్మై యథా యదుతయస్త్వపరః పరో వా భావః కరోతి వికరోతి పృథక్ స్వభావః సంచోదితస్తదఖిలం భవత స్వరూపం మాయా మనస్సృజతి కర్మమయం బలీయః కాలేన చోదిత గుణానుమతేన పుంసః ఛందోమయం యదజయార్పిత షోడశారం సంసారచక్రమజకోతితరే త్వదన్యః सत्त्वं हि नित्यविजितात्मगुणस्वधाम्ना कालो वशीकृतविसृज्य विसर्गशक्तिः चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानाम् आयुश्रियो विभव इच्छति याञ्जनोऽयम् येऽस्मत्पितुः कुपितहास विजृम्भितभ्रू विस्फूर्जितेन लुलिता स तु ते निरस्तः तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ आयुश्रियम् विभवमैन्द्रियमाविरिञ्चात् नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनयमाम् निजभृत्यपार्श्वम् कुत्राशिषश्रुतिसुखा मृगतृष्णिरूपाः क्वेदम् कलेबरमशेषरुजाम् विरोहः निर्विद्यते न तु जनो यदपीति विद्वान् कामानलम् मधुलवैः शमयन् दुरापैः क्वाहम् रजः प्रभव ईशतमोऽधिकेऽस्मिन् जातः सुरेतरकुले क्व तवानुकम्पा न ब्रह्मणो न तु भवस्य न वैरमाया यन्मेऽर्पितः शिरसि पद्मकरः प्रसादः नैषा परावरमतिर्भवतो ननु स्यात् जन्तोर्यथात्मसुहृदो जगतस्तथापि संसेवया सुरतरोरिवते प्रसादः सेवानुरूपमुदयो न परावरत्वम् एवम् जनम् निपतितम् प्रभवाहि कूपे कामाभिकाममनुयः प्रपतन् प्रसङ्गात् कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः सोऽहम् कथम् नु विसृजे तव भृत्यसेवाम् मत्प्राणरक्षणमनन्तपितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतम् विधातुम् खड्गम् प्रगृह्य यदवोचदसद्विधित्सुः त्वामीश्वरो मदपरोऽवतुकम् हरामि एकस्त्वमेव जगदेतदमुष्ययत्वम् आद्यन्तयोः पृथगवस्यसि मध्यतश्च सृष्ट्वा गुणव्यतिकरम् निजमाययेदम् नानेव तैरवसितस्तदनुप्रविष्टः त्वम् वा इदम् सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियम् ह्यपार्था यद्यस्य जन्मनिधनम् स्थितिरीक्षणम् च तद्वै तदेव वसुकालवदिष्टितर्वोः न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषेत्मना निजसुखानुभवो निरीहः योगेन मीलितदृगात्मनि पीतनिद्रस्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे तस्यैव ते वपुरिदम् निजकालशक्त्या सञ्चोदितप्रकृतिधर्मण आत्मगूढम् अम्भस्य नन्तशयनात् विरमत्समाधेर्नाभेरभूत् स्वकणिकावटवन्महाब्जम् तत्सम्भवः कविरतोऽन्यदपश्यमानः त्वाम् बीजमात्मनि ततम् स्वबहिर्विचिन्त्य नाविन्ददप्तशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमुहोपलभेत बीजम् सत्त्वात्मयो निरतिविस्मित आस्थितोऽब्जम् कालेन तीव्रतपसा परिशुद्धभावः त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मम् भूतेन्द्रियाशयमये विततम् ददर्श एवं सहस्रवदनाङ्घ्रिशिरः करोरुनासास्य कर्णनयनाभरणायुधाढ्यम् मायामयम् सदुपलक्षितसन्निवेशम् दृष्ट्वा महापुरुषमापमुदम् विरिञ्चः तस्मै भवान् हयशिरस्तनुवम् च बिभ्रते वेदद्रुहावति बलौ मधुकैटभाख्यौ हत्वा न यच्छ्रुतिगणांस्तु रजस्तमश्च सत्त्वम् तव प्रियतमाम् तनुमामनन्ति इत्थम् नृतिर्यघृषिदेवझषावतारैः लोकान् विभावयसि हंसि जगत्प्रतीपान् धर्मम् महापुरुषपासि युगानुवृत्तम् छन्नः कलौ यदभवस्त्रियुगोऽथ सत्त्वम् नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधुतीव्रम् कामातुरम् हर्षशोकभयैषणार्तम् तस्मिन् कथम् तव गतिम् विमृशामि दीनः जिह्वैकतोच्युत विकर्षति मा वितृप्ता शिष्णोऽन्यतस्त्वगुदरम् श्रवणम् कुतश्चित् घ्राणोऽन्यतश्च पलदृक् क्व च कर्म शक्तिर्बह्व्यः सपत्न्य इव गेहपतिम् लुनन्ति एवम् स्वकर्म पतितम् भव वैतरण्याम् अन्योन्यजन्ममरणाशनभीतभीतम् पश्यञ्जनम् स्वपरविग्रहवैरमैत्रम् हन्तेति पारचरपीपृहमूढमद्य कोऽन्वत्र तेऽखिल गुरो भगवन् प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः मूढेषु वै महदनुग्रह आर्तबन्धो किम् तेन ते प्रियजनाननुसेवताम् नः नैवोद्विजे परदुरत्ययवैतरण्याः त्वद्वीर्यगायन महामृतमग्नचित्तः शोचेततो विमुखचेतस इन्द्रियार्थमाया सुखाय भरमुद्वहतो विमूढान् प्रायेण देवमुनयस्व विमुक्तिकामा मौनम् चरन्ति विजने न परार्थनिष्ठाः नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यम् त्वदस्य शरणम् भ्रमतोऽनुपश्ये यन्मैथुनादिगृहमेधि सुखम् हि तुच्छम् कण्डोयनेन करयोरिव दुःखदुःखम् तृप्यन्ति नेह कृपणा बहुदुःखभाजः कण्डूति वन्मनसिजम् विषहेतधीरः मौनव्रतश्रुततपोऽध्ययनस्वधर्मव्याख्यारहो जपसमाधय आपवर्ग्याः प्रायः परम् पुरुषते त्वजितेन्द्रियाणाम् वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् रूपे इमे सदसती तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य युक्ताः समक्षमुभयत्र विचिन्वते त्वाम् योगेन वह्निमिव दारुषु नान्यतः स्यात् त्वम् वायुरग्निरवनिर्वियदम्बुमात्राः प्राणेन्द्रियाणि हृदयम् चिदनुग्रहश्च सर्वम् त्वमेव सगुणो विगुणश्च भूमन् नान्यत्वदस्त्यपि मनो वचसा निरुक्तम् नैते गुणा न गुणिनो महदादयो ये सर्वे मनः प्रभृतयः सह देवमर्त्याः आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् एवम् विमृश्य सुधियो विरमन्ति शब्दात् तत्तेरत्तम नमस्तुति कर्म पूजाः कर्म स्मृतिश्चरणयो श्रवणम् कथायाम् संसेवया त्वयि विनेति षडङ्गया किम् भक्तिम् जनः परमहंस गतौ लभेत।